पूर्णैकाच्युत शुद्ध बोध महिमा बोधो न बोध्यादयं यायात् कामपि विक्रियां ततेतो दीपः प्रकाश्यादिव तद्वस्तुस्थितिबोधवन्ध्यधिषणा एते किमज्ञानिनो रागद्वेषमयी भवन्ति सहजाम् मुञ्चन्त्युदासीनताम्।